उद्वेजयत्यङ्गुलिपार्ष्णिभागान् मार्गे शिलीभूतहिमेऽपि यत्र न दुर्वह श्रोणिपयोधरार्ताः भिन्दन्ति मन्दां गतिमश्वमुख्यः
उद्वेजयतीति यत्र हिमाद्रौ शिलीभूतं घनीभूतं हिमं यत्र तस्मिन् शिलीभूतहिमे अत एव अङ्गुलिपार्ष्णिभागान् अङ्गुलीनां पार्ष्णीनाञ्च भागान् प्रदेशान् उद्वेजयति अतिशैत्यात् क्लेशयत्यपि मार्गे श्रोणयश्च पयोधराश्च श्रोणिपयोधरम् दुर्वहेण दुर्धरेण श्रोणिपयोधरेण आर्ताः पीडिताः दुर्वहश्रोणिपयोधरार्ताः आङ्पूर्वात् रुच्छतेः तः उपसर्गादृतिधातौ इति वृद्धिः अश्वानां मुखानीव मुखानि यासां ताः अश्वमुख्यः किन्नरस्त्रियः उष्ट्रमुखवत्समासः स्यात्किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः इत्यमरः मन्दां मन्थरां गतिं न भिन्दन्ति न त्यजन्तीत्यर्थः पादपीडाकरेऽपि अतिभारभङ्गुरशरीरतया न शीघ्रं गन्तुं शक्यत इति भावः
दिवाकराद्रक्ष्यति यो गुहासु लीनं दिवाभीतमिवान्धकारम् क्षुद्रेऽपि नूनं शरणं प्रपन्ने मम त्वमुच्चैशिरसां सतीव
दिवाकरादिति यः हिमाद्रिः दिवा दिवसे भीतं भयाविष्टम् इव उलूकमिवेति च ध्वनिः गुहासु लीनम् अन्धकारम् ध्वान्तम् दिवा दिनम् करोतीति दिवाकरः तस्मात् दिवाकरात् दिवाविभानिशाप्रभाभास्कर इत्यादिना टप्रत्ययः भीत्रार्थानाम् भयहेतुः इत्यपादानत्वात् पञ्चमी रक्षति त्रायते ननु क्षुद्रसंरक्षणम् अनर्हम् इत्याशङ्क्य आह क्षुद्रे इति उच्चैश्शिरसाम् उन्नतानाम् शरणम् प्रपन्ने शरणागते क्षुद्रे नीचे अपि सति सज्जने इव नूनम् ममत्वम् ममायम् इत्यभिमानः अस्तीति शेषः मम शब्दात् त्वप्रत्ययः अर्थान्तरन्यासोऽलङ्कारः
लाङ्गूलविक्षेपविसर्पिशोभैः इतस्ततश्चन्द्रमरीचिगौरैः यस्यार्थयुक्तम् गिरिराजशब्दम् कुर्वन्ति वालव्यजनैश्च मर्यः
लाङ्गूलेति चमर्यः मृगीविशेषाः इतस्ततः लाङ्गूलविक्षेपविसर्पिशोभैः लाङ्गूलानि बालधयः पुच्छोस्त्री लोमलाङ्गूले बालहस्तश्च बालधिः इत्यमरः तेषाम् विक्षेपैः विधूननैः विसर्पिण्यः विसृमराः शोभाः कान्तयो येषाम् तैः चन्द्रमरीचिगौरैः चन्द्रमरीचिभिरिव गौरैः शुभ्रैः गौरः करीरे सिद्धार्थे शुक्ले पीते ऋणेऽपि च इति यादवः उपमानानि सामान्यवचनैः इति समासः वालव्यजनैः चामरैः यस्य हिमाद्रेः गिरिराजशब्दम् गिरिराज इति संज्ञाम् अर्थयुक्तं अभिधेयवन्तं कुर्वन्ति। राजानो हि छत्रचामरादि चिह्निताः इति भावः।
यत्रांशुकाक्षेप विलज्जितानां यदृच्छया किं पुरुषाङ्गनानां दरीगृहद्वार विलम्बिबिम्बाः तिरस्करिण्यो जलदा भवन्ति।
यत्रेति यत्र हिमाद्रौ अंशुकाक्षेप विलज्जितानाम् अंशुकाक्षेपेण वस्त्रापहरणेन विलज्जितानाम् किम्पुरुषाङ्गनानाम् किन्नरस्त्रीणाम् यदृच्छया दैवगत्या दरीगृहद्वारविलम्बिबिम्बाः दरीगृहद्वारेषु विलम्बिबिम्बाः लम्बमानमण्डलाः जलदाः तिरस्करिण्यः जवनिकाः भवन्ति। प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा इति अमरः। तिरसोऽन्यतरस्याम् इति सत्त्वम्। अत्र जलदेषु आरोप्यमाणस्य तिरस्करणीत्वस्य प्रकृतोपयोगित्वात् परिणामालङ्कारः।
भागीरथी निर्झरशीकराणाम् वोढामुहुः कम्पितदेवदारुः यद्वायुरन्विष्टमृगैः किरातैः आसेव्यते भिन्नशिखण्डिबर्हः।
भागीरथीति भागीरथी निर्झरशीकराणाम् गङ्गाप्रवाहपातःकणानाम् कर्मणि षष्ठी वोढा प्रापकः वहेस्तृच् मुहुः पुनः पुनः सद्यो वा पौनःपुन्ये भृशार्थे च सद्यो वा स्यान्मुहुः पदम् इति वैजयन्ति। कम्पितदेवदारुः कम्पिताः देवदारवः येन सह तथोक्तः। भिन्नशिखण्डिबर्हः भिन्नानि विश्लेषितानि शिखण्डिनाम् बर्हाणि गतिलाघवार्थम् किरातकटिबद्धानि येन सह तथोक्तः। क्रमात् विशेषणत्रयेण शैत्य सौरभ्यमान्द्यानि उक्तानि। यस्य हिमाद्रेः वायुः यद्वायुः अन्विष्टमृगैः मार्गितमृगैः श्रान्तैरिति भावः। अन्विष्टम् मार्गितम् मृगितम् इत्यमरः। किरातैः आसेव्यते।
सप्तर्षिहस्तावचितावशेषाणि अधो विवस्वान् परिवर्तमानः पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः।
सप्तर्षीति सप्तर्षिहस्तावचितावशेषाणि सप्तचते ऋषयश्च सप्तर्षयः दिक्सङ्ख्ये संज्ञायाम् इति समासः। तेषाम् हस्तैः अवचितेभ्यः लूनेभ्यः अवशेषाणि अवशिष्टानि। शेषोप्रधाने सन्तापे त्रिष्वन्यत्रोपयुज्यते इति केशवः। कर्मणि अण्प्रत्ययः। अनेन पद्मानाम् साफल्यम् सूचितम्। यस्य हिमाद्रेः अग्रसरोरुहाणि रोहन्तीति रुहाणि इगुपदज्ञाप्रीकिरः कः इति कप्रत्ययः। अग्रे उपरि यानि सरांसि तेषु रुहाणि पद्मानि। अधःपरिवर्तमानः भ्रमन् विवस्वान् सूर्यः ऊर्ध्वमुखैः मयूखैः प्रबोधयति विकासयति न कदाचित् अधोमुखैः। अतिमार्तण्डमण्डलत्वात् अग्रभूमेरिति भावः सप्तर्षिमण्डलम् ध्रुवादप्यूर्ध्वमिति ज्यौतिषिकाः अतस्तेषाम् अग्रसरोरुहभागित्वम् युक्तम्
यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारम् धरित्रीधरणक्षमम् च प्रजापतिः कल्पितयज्ञभागम् शैलाधिपत्यम् स्वयमन्वतिष्ठत्
यज्ञाङ्गेति यस्य हिमाद्रेः यज्ञाङ्गयोनित्वम् यज्ञाङ्गानाम् यज्ञसाधनानाम् सोमलतादीनाम् योनिः प्रभवः तस्य भावः तत्त्वम् यज्ञाङ्गार्थम् मया सृष्टो हिमवानचलेश्वरः इति विष्णुपुराणात् धरित्रीधरणक्षमम् भूभारधरणयोग्यम् सारम् बलम् च सारो बले स्थिरांशे च इत्यमरः अवेक्ष्य ज्ञात्वा प्रजापतिः स्वयम् एव कल्पितयज्ञभागम् कल्पितो यज्ञभागो यस्मिंस्तत्तथोक्तम् सोमस्य राज्ञः कुरङ्गः इन्दो शृङ्गी समुद्रस्य शिशुमारो हिमवतो हस्ती इति श्रुतेरिति भावः शैलाधिपत्यम् शैलानाम् आधिपत्यम् अधिपतित्वम् पत्यन्तपुरोहितादिभ्यो यक् इति यक्प्रत्ययः अन्वतिष्ठत् ददाति स्मेत्यर्थः उक्तम् च ब्रह्माण्डपुराणे शैलानाम् हिमवन्तम् च नदीनाम् चैव सागरम् गन्धर्वाणामधिपतिम् चक्रे चित्ररथम् विधिः इति सम्प्रति कथाम् प्रस्तौति
स मानसीम् मेरुसखः पितॄणाम् कन्याम् कुलस्य स्थितये स्थितिज्ञः मेनाम् मुनीनामपि माननीयाम् आत्मानुरूपाम् विधिनोपये मे
स इति मेरोसखा मेरुसखः बन्धुसम्पन्न इति भावः स्थितिज्ञः मर्यादाभिज्ञः अनेन श्रुतसम्पत्तिः सूच्यते सः हिमवान् पितॄणाम् मानसीम् मनःसङ्कल्पजन्याम् मुनीनाम् अपि माननीयाम् योगब्रह्मवादाभ्याम् पूज्यामित्यर्थः उक्तम् च विष्णुपुराणे तेभ्यः शुभास्पदम् जज्ञे मेनका हरिणी तथा ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज इति आत्मानुरूपाम् कुलशीलसौन्दर्यादिभिः सदृशीम् मेनाम् मेनकादेवीति नामवतीम् कन्याम् कुलस्य स्थितये प्रतिष्ठायै विधिना यथाशास्त्रेण उपयेमे परिणीतवान् उपाद्यमस्वकरणे इत्यात्मने पदम् तेषाम् तु मानसी कन्या मेना नाम महागिरेः पत्नी हिमवतो यस्याः पुत्रो मैनाक उच्यते इति ब्रह्माण्डपुराणात्
कालक्रमेणाथ तयोः प्रवृत्ते स्वरूपयोग्ये सुरतप्रसङ्गे मनोरमम् यौवनमुद्वहन्त्याः गर्भोऽभवत् भूधरराजपत्न्याः
कालक्रमेणेति अथ कालक्रमेण गच्छता कालेनेत्यर्थः तयोः मेनका हिमवतोः स्वरूपयोग्ये सौन्दर्यानुगुणे रूप्यते निश्चीयते अनेनेति रूपम् ज्ञानम् तद्योग्ये शास्त्रानुसारिणीत्यर्थः सुरतप्रसङ्गे सुरतकर्मणि प्रवृत्ते सति मनोरमम् यौवनम् उद्वहन्त्याः भूधरराजपत्न्याः मेनकायाः गर्भः अभवत्
असूत सा नागवधूपभोग्यम् मैनाकमम्भो निधिबद्धसख्यम् क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रौ अवेदनाज्ञम् कुलिशक्षतानाम्
असूतेति सा मेना नागवधूपभोग्यम् नागकन्यापरिणेतारमित्यर्थः अम्भोनिधिबद्धसख्यम् अम्भोनिधिना बद्धसख्यम् समुद्रकृतमैत्रीकम् सख्यमूलम् सूचयति पक्षच्छिदि पक्षच्छेत्तरि सत्सूद्विष इत्यादिना विप्रत्ययः वृत्रशत्रौ क्रुद्धे कुपिते सत्यपि कुलिशक्षतानाम् वज्रप्रहाराणाम् सम्बन्धसामान्ये षष्ठी अवेदनाज्ञम् जानातीति ज्ञः इगुपदज्ञा इति कप्रत्ययः वेदनानाम् ज्ञः अथवा वेदनाम् जानातीति वेदनाज्ञः आतोनुपसर्गे कः इति कप्रत्ययः उपपदमतिङ् इति समासः स न भवतीति अवेदनाज्ञः तम् कुलिषक्षतवेदनानभिज्ञम् इत्यर्थः सापेक्षत्वेऽपि गमकत्वात् समासः पक्षच्छेदोद्यतशक्रात् त्राणाय शरणागमनम् अनयोः सख्यमूलमिति भावः मैनाकम् पुत्रम् असूत सर्वपर्वतपक्षच्छेदेऽपि अयम् अच्छिन्नपक्ष एवेति मैनाकस्योत्कर्षः तादृक् पुत्रवत्त्वम् हिमाद्रेरिति सार्थकम् मैनाकस्य वर्णनम् पिता न ज्ञायते यस्याः भ्राता यदि न विद्यते नोपयच्छेत्तु ताम् कन्याम् धर्मलोपभयात् सुधीः इति अभ्रातृककन्यापरिणयनिषेधात् प्रकृते पार्वती भ्रातृमत्येवेति सूचनार्थम् मैनाकवर्णनम् इति तात्पर्यार्थः।